इयम् आकाशवाणी। सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। प्रधानमन्त्री श्वः राजस्थान मध्यप्रदेशयोः यात्रां विधाय विविध परियोजनानाम् आधारशिलां संस्थापयिष्यति। सिक्किमराज्यस्य मंगनमण्डलस्य लोहनाक सरोवरे मेघस्य विस्फोटानन्तरं तीस्ता नद्यां जाते जलाप्लवने पेक्योंग मण्डले सैन्यप्रतिष्ठानं जलप्रलयनेन आहतानन्तरं त्रयोविंशति सैनिकाः लुप्ताः सन्ति। बिहारस्य उत्तरपश्चिम दक्षिण पूर्व क्षेत्रयोः भीषण वृष्टिपातः अधुनापि प्रचलति। अपि च चीनस्य हांगझोउ इत्यत्र 19वें एशियाई क्रीडास्पर्धासु भारतेन अद्य यावत् 80 पदकानि विजितानि। अथ वार्ता विस्तरेण। प्रधानमन्त्री श्वः राजस्थाने स्वास्थ्याधारभूत संरचनानां सुदृढीकर्तुं महत्वपूर्ण परियोजनानां आधारशिलां संस्थापयिष्यति। एतासु परियोजनासु जोधपुरस्य अखिल भारतीय आयुर्विज्ञान संस्थाने 50+300 शय्यानां ट्रॉमा सेंटर इति आघात केन्द्रं सम्पूर्ण राज्ये प्रधानमन्त्री आयुष्मान भारत स्वास्थ्याधारभूत संरचनाभियानस्य अभियानानन्तरं 7 निरीक्षण केन्द्रैः युताः परियोजनाः च सम्मिलिताः सन्ति। श्रीमोदी जोधपुर विमानस्थात्रे अत्याधुनिकस्य नूतन टर्मिनल भवनस्य शिलान्यासं करिष्यति। एतद् भवनं न्यूनातिन्यूनं 24,000 वर्ग मीटर मिते क्षेत्रे 80+400 कोटि रूप्यकाणां व्ययेन निर्माष्यते। एतस्मात् नवीन टर्मिनल भवनात् व्यस्त समयावधौ 500+2,000 यात्रिणः यात्रा सेवायाः लाभं प्राप्स्यन्ति। सहैव अनेन क्षेत्रस्य पर्यटने अपि वृद्धिः भविष्यति। प्रधानमन्त्री आईआईटी जोधपुर परिसरस्य अपि लोकार्पणं करिष्यति। अस्य निर्माणे 35+100+1,000 कोटि रूप्यकाणां व्ययः संजातः अस्ति। राजस्थानस्य केन्द्रीय विश्वविद्यालये आधारभूत संरचना विकासस्य अन्तर्गतम् उन्नत प्रयोगशालायाः कर्मचारी आवास क्रीडा योग विज्ञान केन्द्रस्य च उद्घाटनं विधास्यति। श्रीमोदी विश्वविद्यालये केन्द्रीय पुस्तकालयस्य छात्रावास भवनस्यापि शिलान्यासं करिष्यति। प्रधानमन्त्री प्रायः 75+400+1,000 कोटि रूप्यकाणां विभिन्न मार्ग परियोजनानाम् अपि शुभारम्भं करिष्यति। अनेन सम्पर्क सौविध्यं विविध्य व्यापार जीविकयोः सर्जने वृद्धि भविष्यति। राजस्थानस्य यात्रावधौ श्रीमोदी द्वयोः नूतन रेलयानयोः ध्वजमुत्थाप्य शुभारम्भं करिष्यति। अस्यां यात्रायां जैसलमेरस्थात्रात् दिल्लीपर्यन्तं रूचिना एक्सप्रेस, मारवाड़ जंक्शन स्थात्रात् खाम्बली घाट पर्यन्तं धरोहर रेलयानं सम्मिलिते स्तः। धरोहर रेलयानेन पर्यटनाय प्रोत्साहनं प्राप्स्यते। क्षेत्रे जीविकायाः नवीनावसराः च सर्जिष्यन्ति। एतां परियोजनानाम् अतिरिच्य प्रधानमन्त्री अन्ये द्वे रेल परियोजने राष्ट्राय समर्पयिष्यति। एतयोः 50+100 किलोमीटर मितस्य देगाना रायकाबाग रेल विस्तारं 58+50 किलोमीटर मितस्य द्वेगाना कुचामन सिटी रेल विस्तारं इत्यनयोः द्विधाकरण परियोजने सम्मिलिते स्तः। प्रधानमन्त्री नरेन्द्र मोदी श्वः मध्यप्रदेशस्य यात्रां विधास्यति। सः राज्ये 66+200 कोटि रूप्यकाणां परियोजनानां उद्घाटनं लोकार्पणं च करिष्यति। एताः परियोजनाः मार्ग रेल वात्येन्धन पाइपलाइन आवास स्वच्छ पेयजल सम्बद्धाः वर्तन्ते। श्रीमोदी इन्दौरनगरे लाइट हाउस परियोजनायाः उद्घाटनं करिष्यन्ति। अस्याः निर्माणं प्रधानमन्त्री आवास योजना शहरी इत्यस्य अन्तर्गतम् 28+100 कोटि रूप्यकाणां व्ययेन संजातम् अस्ति। अस्याः अन्तर्गतम् एकसहस्रतः अधिकाः परिवाराः लाभान्विताः भविष्यन्ति। प्रधानमन्त्री अष्टचत्वारिंशत् अर्बुद रूप्यकाणां विभिन्न मार्ग परियोजनानां उद्घाटनं लोकार्पणं च करिष्यति, येन मध्यप्रदेशे मार्ग संरचनायाम् उन्नतिः भविष्यति। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.com इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। सिक्किम राज्यस्य मंगन मण्डलस्य लोनाक सरोवरे मेघस्य विस्फोटानन्तरं तीस्ता नद्यां जलाप्लवनं संजातम्। पेक्योंग मण्डले सैन्य प्रतिष्ठानं जलप्रलयनेन आहतानन्तरं त्रयोविंशति सैनिकाः लुप्ताः सन्ति। वारदांगे यानानि अपि प्रवहिताः। मंगन गंगटोक पेक्योंग नामची मण्डलेषु महती क्षति जाता। अनेके शेतवः भवनानि चापि भग्नानि संजातानि। फिदांग दिवचु इत्यत्र अपि गृहाणि क्षतिग्रस्तानि सन्ति। मंगन मण्डले संचार जालम् अपि बाधितं वर्तते। शांखलांग नगरे जीआरईएफ इत्यस्य द्वौ कार्मिकौ लुप्तौ स्तः। तुंगे आरक्षिस्थानकम् अपि प्रवहितम्, अपि च चत्वारः जनाः लुप्ताः सन्ति। राज्यापत् सहयोगी दलेन गंगटोक नगरे पञ्चविंशति जनाः संरक्षिताः। प्रायशः पञ्चशतं यावत् जनाः सहायता स्थलेषु शरणं प्राप्तवन्तः। प्रणामि मन्दिरे सहायोद्धार शिविराणां स्थापना कृतास्ति। सिक्किमे तीस्ता नद्याः वेशिन क्षेत्रे अकस्मात् जलप्रलयानन्तरं मुख्यमन्त्री प्रेमसिंह तामंगेन अद्य प्रातः जलप्रलयग्रस्तक्षेत्राणां निरीक्षणं कृतम्। बिहारस्य उत्तर पश्चिम दक्षिण पूर्व क्षेत्रयोः भीषण वृष्टिपातः अधुनापि प्रचलति। ऋतुविज्ञान विभागेन अद्य पश्चिम चम्पारण रोहतास औरंगाबाद सुपौल गया बक्सर मुजफ्फरपुर अररिया गोपालगंज क्षेत्राणि समेत्य 19 जनपदेषु भीषण वृष्टिपातस्य संचेतना प्रवर्तिता अस्ति। अस्मिन्नवधौ मेघ गर्जनस्य विद्युत्पातस्य अपि संचेतना प्रकाशिता अस्ति। नेपालस्य निम्नवर्ति क्षेत्रेषु राज्ये च प्रवर्तमानेन निरन्तर वृष्टिपातेन विविधस्थानेषु नदीनां जलस्तरे वृद्धि संजात। अस्माकं संवाददाता प्रोक्तवान् यत् पश्चिम चम्पारण जनपदे गण्डक नद्याः जलस्तरं एकदा पुनः प्रवर्धितम्। अद्य प्रातः वाल्मीकि गण्डक वैराज इत्यस्मात् नद्यां 23,000+ क्यूसेक् मिततः अधिकं जलं निपातितम् अस्ति। जनपद प्रशासनेन अधिकारिणः कस्मादपि अप्रिय स्थितेः सुरक्षायै सतर्कं भवितुं निर्दिष्टाः। केरलस्य उत्तरभागेषु निरन्तरं वर्षा प्रवर्तते। तिरुवनन्तपुरम क्षेत्रे व्यापक क्षतेः सूचना प्राप्ता। केरलस्य लक्षद्वीप तटे मत्स्य निग्रहणं प्रतिबन्धितं संजातम् अस्ति। वर्षाकारणात् निम्नवर्ति क्षेत्राणि जलमयानि जातानि, येन कृषिक्षेत्रेषु हानिः संजाता। नेय्यर क्षेत्रे जलस्तरं संवर्धितम् अस्ति। निरन्तरं वृष्टिम् उद्दिश्य तिरुवनन्तपुरम जनपदे सर्वाणि शैक्षिक संस्थानानि अद्य पिनद्धानि। चीनस्य हांगशो इत्यत्र 19वीं एशियाई क्रीडा स्पर्धासु भारतेन अद्य यावत् 80 पदकानि विजितानि। अद्य लक्ष्यभेदन स्पर्धायां ज्योति सुरेखा वेन्नम ओजस देवताले इत्यनयोः युगलेन कोरिया दलस्य सो चैवोन जू जाहून इत्यनयोः युगल पराजित्य स्वर्ण पदकानि अधिगतम्। लक्ष्यभेदन स्पर्धायां भारतस्य इदं प्रथमं स्वर्णपदकम् अस्ति। सममेव 35 किलोमीटर मितस्य रेस वॉक मिक्स्ड टीम इत्यस्यां स्पर्धायां रामबाबू मंजूरानी इत्यनयोः युगलेन कांस्य पदकानि विजितम्। स्क्वाश इत्यस्य मिक्स्ड डबल क्रीडायां अनाहत सिंहः अभय सिंहः इत्यनयोः युगल उपान्त्यचक्रे मलेशियायाः आइफा विनती अंजमान मोहम्मद सयाफिक बिन कमाल इत्यनयोः युगलेन पराजित्य कांस्यपदकेन संतुष्टिम् अधिगतम् इति वार्ताः।